सर्वेभ्यः। अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे तृतीयः पाठः। अद्य वयम् अव्ययीभावसमासस्य विधानं पश्यामः, तत्र प्रक्रिया कथं भवति इत्यपि जानीमः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। आदौ लघुसिद्धान्तकौमुद्याः मूलं पठामः। अनुवदन्ति वा शुभा भगिनी?
वदामि भगिनि।
तत्रादौ केवलसमासः,
तत्रादौ केवलसमासः, तत्रादौ एकवारं
समासः पञ्चधा,
समासः पञ्चधा,
तत्र समसनं समासः,
तत्र समसनं समासः,
स च विशेषसंज्ञाविनिर्मुक्तः,
स च विशेषसंज्ञाविनिर्मुक्तः,
केवलसमासः प्रथमः,
केवलसमासः प्रथमः,
प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावः द्वितीयः,
प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावः द्वितीयः,
प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः तृतीयः,
प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः तृतीयः,
तत्पुरुषभेदः कर्मधारयः,
तत्पुरुषभेदः कर्मधारयः,
कर्मधारयभेदो द्विगुः,
कर्मधारयभेदो द्विगुः,
प्रायेण अन्यपदार्थप्रधानः बहुव्रीहिः चतुर्थः,
प्रायेण अन्यपदार्थप्रधानः बहुव्रीहिः चतुर्थः,
प्रायेण उभयपदार्थप्रधानः द्वन्द्वः पञ्चमः,
प्रायेण उभयपदार्थप्रधानः द्वन्द्वः पञ्चमः।
राघवी समर्थः पदविधिः, पदसम्बन्धीयो विधिः सः समर्थाश्रितो बोध्यः, प्राक्कडारात् समासः, कडाराः कर्मधारये इत्यतः प्राक् समासः इत्यधिक्रियते,
कडाराः कर्मधारये इत्यतः प्राक् समासः इत्यधिक्रियते, कडा
सः सुपा,
सः सुपा,
सुप् सुपासः वा समस्यते,
सुप् सुपासः वा समस्यते,
समासत्वात् प्रातिपदिकत्वेन सुपः लुक्,
समासत्वात् प्रातिपदिकत्वेन सुपो लुक्,
परार्थाभिधानं वृत्तिः,
परार्थाभिधानं वृत्तिः,
कृत् तद्धित समास एकशेष सनाद्यन्तधातुरूपाः पञ्चवृत्तयः,
कृत् तद्धित समास एकशेष सनाद्यन्तधातुरूपाः पञ्चवृत्तयः,
वृत्त्यर्थावबोधकं वाक्यं विग्रहः,
वृत्त्यर्थावबोधकं वाक्यं विग्रहः,
सुधा भगिनि स च लौकिकः अलौकिकश्च इति द्विधा,
स च लौकिक अलौकिकश्च इति द्विविधा,
तत्र पूर्वभूतः इति लौकिकः,
तत्र पूर्वभूत इति लौकिकः,
पूर्वं भूतः इति लौकिकः,
पूर्वं भूत इति अलौकिकः,
इति लौकिकः,
इति लौकिकः,
पूर्व अम् भूत सु इति अलौकिकः,
पूर्व अम भूत सु इति अलौकिक है, पूर्व अम सु इति अलौकिक है,
भूतपूर्व
भूतपूर्व
भूतपूर्वेचरत् इति निर्देशात् पूर्वनिपातः,
भूतपूर्वेचरत् इति निर्देशात् पूर्वनिपातः,
इवेन समासः विभक्त्यलोपश्च,
इवेन समासः विभक्त्यलोपश्च,
वागर्थौ इव वागर्थाविव,
वागर्थौ इव वागर्थाविव।
सम्यक्, धन्यवादाः। भीषास्माद् वातः पवते, भीषोदेति सूर्यः इति वेदे एव उच्यते। सर्वे भयेन एव कार्यं कुर्वन्ति इति। अस्मिन् वर्गे व्याकरणम् इत्युक्ते तत्र मम गुरुः वदति स्म, यदि गुरुः पूर्वावलोकनं विना आगच्छति अथवा शिष्यः परावलोकनं विना आगच्छति तर्हि तौ द्वौ अपि शास्त्रस्य शत्रुभूतौ इति। अतः पाठानन्तरं पुनरवलोकनं कम्पल्सरि, नित्यकर्म भवेदेव। कथञ्चित् प्रायः सर्वेषामपि अभ्यासाः प्राप्ताः, प्रायेण सम्यगस्ति। केवलसमासः केन सूत्रेण विधीयते, सः सुपा इति। तत्र सोदाहरणं विवृणुत इति प्रश्नः भवति चेत् विवरणं सम्यगेव दातव्यम्। इत्युक्ते सः सुपा, सुप् इति अनुवर्तते, सुबन्तं सुबन्तेन समस्यते इति उक्त्वा उदाहरणं, पूर्वं भूतः भूतपूर्वः इति उदाहरणं। सुपोधातुप्रातिपदिकयोः सोदाहरणं व्याख्यात सर्वैः कृतमेव। वृत्तिः नाम का, वृत्तयः कति, ताः काः, विग्रहः इत्युक्ते किं, सः कति विधः, द्विविधः, भूतपूर्वः, प्रक्रिया, सर्वमपि लिखितं। किन्तु सुपोधातुप्रातिपदिकयोः इत्यस्य सूत्रस्य अर्थः अवगतः वा न वा इति मम संशयः। इदानीं रामः इत्यस्ति, राम इति प्रातिपदिकं, तत्र सुप्रत्ययः अस्ति, तत्र किमर्थं सुपः लोपः न भवति? रामः इति स्थिते सुपोधातुप्रातिपदिकयोः इत्यनेन सुपः वृत् किमर्थम्?
तत्र तु समसनम् इति कारणेन,
अस्मिन् सूत्रे तु समसनं भवेदिति नास्ति किल। समासः इति कुत्र अस्ति सूत्रार्थे? धातु प्रातिपदिकयोः सुपः लोपः भवति इत्युक्ते राम इति प्रातिपदिकं, तत्र सुप्रत्ययस्य लोपः किमर्थं न भवति? न श्रूयते। कोऽपि वक्तुमर्हति वा?
पदम् इति चेत् सुबन्धं वा तिगन्तं वा भवेत्, अतः
अतः न भवति इति वा? कुप् यदि लोपः भवति तदनन्तरमपि प्रत्ययलक्षणेन, यथा दधि इत्यस्ति नपुंसकलिङ्गे, दधि इत्यस्मात् सुप्रत्ययः अस्ति, तस्य लोपः क्रियते, किन्तु तत्तु सुबन्तमेव। यद्यपि प्रत्ययस्य लोपः भवति तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्ति, प्रत्ययलक्षणेन सुबन्तत्वं तु भवत्येव। किमर्थं न भवति? मातंगी
Yeah, you have to unmute yourself. Click on this microphone to unmute. So why do we, what is the Shubodhatu Pratipadika Yoho? Okay, maybe you can think and let me know in the next class. Think over the sutra, what it says and what it means, and why don't we apply this sutra in नॉर्मल सुबंत रामः इत्यादिषु किमर्थं न भवति सुबोधातु प्रातिपदिकयोः इत्यस्य अन्वयः. सामान्यतः सुबंतयोरेव समासः ऋतम् यतोहि सुप् सुपा इत्यस्ति. सामान्यतः समासः द्वयोरेव इत्यपि ऋतमेव यतोहि सुबंतं सुबंतेन इत्येव. तस्य अपवादाः सन्ति बहुव्रीहि समासे द्वन्द्व समासे अनेकम् इति सूत्रे एव अस्ति. अतः बहूनां बहुव्रीहिः बहूनां द्वन्द्वः अस्ति. किन्तु अन्यथा यद्यपि दीर्घः समासः अस्ति तथापि द्वयोर्द्वयोरेव एकस्मिन् काले समासः क्रियते. इदमेकं समासस्य प्रातिपदिकसंज्ञा क्रियते तेन किं प्रयोजनम् इति पृष्टमासीत्. तत्र प्रयोजनद्वयमस्ति. कैश्चित् एतद् लिखितं कैश्चित् तल्लिखितम् उभयं केनापि न लिखितम् इति चिन्तयामि. प्रथमं प्रयोजनं सुपोधातु प्रातिपदिकयोः इत्यनेन सुब्लुक्. यदि प्रातिपदिकसंज्ञा नास्ति तर्हि प्रत्ययस्य लोपः न भवति. द्वितीयं प्रयोजनं पदत्वसिद्धिः. यदि प्रातिपदिकत्वमस्ति तदा एव सुप्रत्ययानां समस्तपदात् सुप्रत्ययानां योजनं भवति. सुप्तिङन्तं पदम् इत्यनेन पदत्वं सिद्ध्यति. यदि पदं न भवति तर्हि प्रयोक्तुं न शक्यते इति. प्रयोजनद्वयं प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनं सुब्लुक् सुपोधातु प्रातिपदिकयोः इत्यनेन लोपसिद्धिः. द्वितीयं प्रयोजनं समस्तपदात् पुनः सुप्रत्ययस्य उत्पत्तौ पदत्वसिद्धिः इति प्रयोजनद्वयं भवति. अवगतं वा? किमपि प्रष्टव्यमस्ति वा? अग्रे गन्तुम् अर्हामः. These are all basic concepts, so unless you have clarity, things will become more confusing later on.
Atra supo pratyasya look bhavati kila tad samasasya pratipadikasya va na kila. ततः पूर्वम् इति मया अवगतम्.
कदा?
यदि ते पृथक् पद
समास अनन्तरम् एव किल समासे कृते सुप्रत्ययोः लुक् भवति इत्येव किल पठितम्.
சமாசம் அப்படிங்கறது எந்த ஸ்டெப் ஃபர்ஸ்ட்? அந்த ரெண்டு பதத்தை பார்த்த உடனேயே நாம அங்க சமாசம்ங்கறத வந்து ஆரம்பிச்சிடுறோம்.
स एव समासः पदद्वयं सुबन्तं सुबन्तेन समस्यते कुत्र अस्ति. कुत्र समासः कुत्र अस्ति? अत्र अस्ति. पूर्व अम् इति एकं सुबन्तं, भूतसु इति एकं सुबन्तं, सुबन्तद्वयं योजयामः, अयमेव समासः. तत्र
समासतोड பிராதிபதிகமா? இல்ல இல்ல, அந்த பிரதக் அந்த பதங்களோட பிராதிபதிகம் தானே?
ஆமா.
அப்போ
ஹரி ஓம். பகினி ஸ்னஷ்ருயதே.
தர்ஹி அத்ர ये पदानि यानि पदानि सन्ति पूर्व भूत इति ते तु समासस्य प्रातिपदिकानि वा?
समासस्य प्रातिपदिकम् इत्युक्ते किम्? पूर्व अम् इति एकं पदम् सीता ङस् इत्यस्ति, एतदेकं सुबन्तम्। पतिसु इति एकं सुबन्तम्, सुबन्तद्वयमस्ति। यदा योजयामः तदा अस्य सम्पूर्णस्य समुदायस्य समाससंज्ञा भवति, अयमेव समासः। अस्य समुदायस्य सीता ङस् पतिसु इत्यस्य कृत्तद्धितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति। सीता इति पृथक् प्रातिपदिकं पूर्वमेव, तत्र भिन्नं। पति इति प्रातिपदिकं भिन्नम्। सीता ङस् पतिसु इति समुदायस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासश्च इत्यनेन दीयते। ततः परं तत्र लोपः।
अस्तु भगिनि,
अन्य केऽपि प्रश्नाः सन्ति वा? यस् मातङ्गी, यू हव् टु अन्म्यूट् युवर् सेल्फ्।
यस्, इन् सुपो धातु प्रातिपदिकयो इट् सेज़् एतयोः अवयवस्य सो इन् द समुदाय इट् सेल्फ् सुप्रत्यय इस् एन् अवयव, वेरस् इन् राम सु इस् नाट् एन् अवयव आफ् द एण्टैर् प्रातिपदिक, देर्फोर् इट् डज़न्ट् गेट् लुक्।
एक्साक्ट्लि, सो यदा रामसु इति केवलात् शब्दात् प्रत्ययः क्रियते, प्रातिपदिकं भिन्नं, प्रत्ययः भिन्नः, रैट्? सो इट् इस् नाट् अ द प्रत्यय देर् इस् नाट् एन् अवयव आफ् द प्रातिपदिक। सूत्रार्थः सम्यक् द्रष्टव्यः। एतयोः अवयवस्य सुपः लुग् भवति। सो यदि केवलं सीता ङस् इत्यस्ति अथवा सीतायाः इति पदं, तत्र सीता इति प्रातिपदिकं, ङस् इति प्रत्ययः, प्रत्ययः भिन्नः, प्रातिपदिकं भिन्नम्। एवमेव पतिः इत्यत्र पति इति प्रातिपदिकं, सुप्रत्ययः भिन्नः। इदानीं अस्माभिः किं कृतम्? समुदायस्य यदा प्रातिपदिकसंज्ञा दीयते तदा ङस् सु इति प्रातिपदिकस्य अवयवः जातः, पूर्वं सः प्रातिपदिकस्य अवयवः न। इस् दट् क्लियर्? सो इनिशियली सीता वाज़् एन् इण्डिपेण्डेण्ट् प्रातिपदिक, ङस् वाज़् अ प्रत्यय, प्रत्यय इस् नाट् अ पार्ट् आफ् प्रातिपदिक वेन् देवर् इण्डिपेण्डेण्ट् वर्ड्स्। वेन् वी आर् मेकिङ्ग् अ समास, समुदायस्य वी आर् गिविङ्ग् द प्रातिपदिक संज्ञा टु द एण्टैर् समुदाय। सीता ङस् पतिसु इस् नौ अ वन् प्रातिपदिक, as a part of that we have the two pratyayas, so pratipadika avayavasya sup pratyayasya lopaha, so supodhatu pratipadikayoho applies only when you are adding something to the subanta, you are modifying the subanta and then giving it a pratipadika samnya, like you are joining two subantas and giving a pratipadika samnya to the complete thing. समुदायस्य यदा प्रातिपदिकसंज्ञा दीयते तदा तदवयवस्य सुप्रत्ययस्य लोपः भवति। केवलम् एकं पदमस्ति चेत् तत्र सुप्रत्ययस्य लोपः न भवति। इस् दट् क्लियर्? ओके, सो गुड्। So this is why we need to go back and read. Okay, so first time when I'm saying everything is fine, sarvam avagatam iva bhati, kintu yada punah punah tad vishaye chintanam kriyate tada eva kim avagatam kim na avagatam iti jnayate. Astu, idanim agre gachhamah. Adya vayam avyayi bhava samasasya vidhanam pashyamah. अव्ययीभावे प्रक्रिया कथं भवति इत्यपि पश्यामः। तत्र पञ्चमं सूत्रं द्वितीयाध्याये प्रथमपादे प्रथमं सूत्रमस्ति, समर्थः पदविधिः, शुभामन्त्रिते पराङ्गवत्स्वरे, प्राक्कडारात् समासः, सह सुप, चत्वारि सूत्राणि सन्ति, तत्सर्वं दृष्टम्। प्रथमं सूत्रत्रयं पीठिकारूपं ततः केवलसमासः दृष्टः पञ्चमं सूत्रमस्ति अव्ययीभावः इति अव्ययीभावः इति एकमेव पदमस्ति सूत्रे अधिकारसूत्रम् अस्माभिः प्रथमवर्गे दृष्टम् अष्टाध्याय्यां समासः इति एकः बृहत् अधिकारः तत्र अन्तः चत्वारः अधिकाराः सन्ति अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः तत्र प्रथमः अधिकारः अव्ययीभावः इति इतः आरभ्य एकविंशसूत्रपर्यन्तम् रैट् सो फ्रम् 5 till 21 यद्यदुच्यते तत्सर्वमपि अव्ययीभावः इत्यर्थः अधिकारः अयम् प्राक् तत्पुरुषात् द्वाविंशं सूत्रमस्ति तत्पुरुषः इति ततः पर्यन्तम् सो नाट् 32 इट् इस् 22 तत्पुरुषः इस् 21 22 सो प्राक् तत्पुरुषात् प्राक् ततः पूर्वम् अव्ययीभावः इत्यधिकारः भवति इत्यर्थः सो एतावद्भिः सूत्रैः स्टार्टिङ्ग् फ्रम् 216 till 21 सो देर् आर् अरौण्ड् 16 सूत्र विच् गिव् अव्ययीभावसमास एतैः सूत्रैः अव्ययीभावसमासस्य विधानं भवति अव्ययीभावसमासः विधीयते किन्तु लघुसिद्धान्तकौमुद्याम् एतेषु सूत्रद्वयमेव अस्ति षोडशसूत्राणि सन्ति तेषु सूत्रद्वयमेव अत्र व्याख्यायते एकं तु प्रधानं सूत्रमस्ति अपरम् एकं सूत्रं स्वीकरोति वरदराजः षष्ठं सूत्रम् अव्ययीभावः इत्यधिकारे षष्ठं सूत्रमस्ति सूत्रमेव बहु दीर्घम् अव्ययम् विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रतिशब्दप्रादुर्भाव पश्चाद्यथा आनुपूर्व्य यौगपद्य सादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रम् सूत्रम् दीर्घम् किन्तु अवगमने कोऽपि क्लेशः इति नास्ति अव्ययम् इति प्रथमा विभक्त्यन्तम् अन्तवचनेषु इति सप्तमी विभक्तौ बहुवचनम् एतेषु अर्थेषु इत्यर्थः अत्र एकं द्वे इत्यादि सङ्ख्याः दृश्यन्ते षोडश अर्थाः सन्ति सो एतद्वचनेषु एतदर्थेषु एतेषु अर्थेषु अव्ययम् किं भवति समासः सुप् सुपा अव्ययमपि सुबन्तमेव पूर्वम् अग्रे अपि दृश्यते सो सुबन्तम् अव्ययरूपं सुबन्तम् सुबन्तेन सह समस्यते सः अव्ययीभावसमासः इत्यर्थः इदं विधिसूत्रमस्ति अव्ययीभावसमासस्य विधानम् अनेन सूत्रेण क्रियते सूत्रार्थः एवमस्ति विभक्त्यर्थादिषु वर्तमानम् अव्ययम् सुबन्तेन सह नित्यम् समस्यते सः अव्ययीभावः अव्ययम् सुबन्तेन सह समस्यते कीदृशम् अव्ययम् विभक्ति समीप इत्यादि षोडश अर्थाः उक्ताः तेषु अर्थेषु यत् अव्ययम् अस्ति तत् सुबन्तेन समर्थेन सुबन्तेन समर्थः पदविधिः सो अन्वितेन सुबन्तेन सह समस्यते सः अव्ययीभावः इति सूत्रस्य अर्थः अव्ययम् नाम किम् इति प्रश्नः तत्र स्वरादिनिपातम् अव्ययम् इति संज्ञासूत्रमस्ति अव्ययम् नाम किम् स्वरादिनिपातम् अव्ययम् स्वरादिः इति एकः गणः अस्ति ग्रूप् आफ् वर्ड्स् यदि अव्ययप्रकरणम् पश्यन्ति तत्र अव्ययम् इति संज्ञा अस्ति पाणिनिना पञ्चभिः सूत्रैः अव्ययसंज्ञा विधीयते स्वरादिः इति एकः गणः अस्ति चादिगणः अत्र तु आदिगणः इत्यस्ति चादिगणः च एवं तु इत्यादि प्रसिद्धानि अव्ययानि एतेषु गणेषु सन्ति उपसर्गाः प्र पर अपसम् इत्यादयः गतिसंज्ञकाः शब्दाः सन्ति केचन तद्धितान्ताः कृदन्ताश्च यथा क्त्वा ल्यप् तुमुन् इत्येते कृदन्ताः तद्धितेषु अपि अस्ति तसि प्रत्ययः गृहतः वनतः इत्यादि एवं बहूनां शब्दानाम् अव्ययसंज्ञा पाणिनिना दीयते ते के इति अव्ययप्रकरणम् इति अस्ति सिद्धान्तकौमुद्यां तत्र पठनीयम् सामान्यतः अव्ययस्य लक्षणं तु ज्ञायते एव कोऽपि वक्तुं शक्नोति वा अव्ययस्य एकः श्लोकः सामान्यतः उच्यते अव्ययं कीदृशं भवति कोऽपि जानाति वा न सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्नव्येति तदव्ययम् इति सामान्यतः लक्षणं त्रिषु लिङ्गेषु सदृशम् सर्वासु विभक्तिषु समानम् सर्वेषु वचनेषु यत् न व्येति व्येति परिवर्तते इत्यर्थः न परिवर्तते तदव्ययम् सो दट् विच् डस् नाट् चेञ्ज् इन् विभक्तिवचनलिङ्ग इत्युक्ते सर्वमपि अस्ति अव्ययस्य अव्ययम् इति पृथक् न अव्ययेभ्यः सुप् प्रत्ययाः योज्यन्ते तेषां लोपः भवति अतः रूपे भेदः न भवति किन्तु अव्ययमपि सुबन्तमेव अव्ययीभावसमासे सामान्यतः उपसर्गाणाम् एव उपयोगः भवति प्र पर अप सम् अनु अव निस् निर्दुस् दुर्वीयाङ् इत्यादि द्वाविंशतिः उपसर्गाः सो सामान्यतः एतानि एव अव्ययानि अव्ययीभावसमासे भागं वहन्ति सो अर्थविशेषेषु एतानि अव्ययानि सुबन्तैः सह समासं प्राप्नुवन्ति इत्यर्थः अत्र सूत्रार्थे सुबन्तेन सह नित्यं समस्यते इत्यस्ति नित्यसमासः नाम कः इति वदति प्रायेण अविग्रहः नित्यसमासः प्रायेण अस्वपदविग्रहः वा इति नित्यसमासस्य उदाहरणं ददाति तत् किमित्युक्ते सामान्यतः समासः सर्वोऽपि विकल्पेन भवति सीतायाः पतिः गच्छति सीतापतिः गच्छति इति व्यस्तप्रयोगः अपि कर्तुं शक्यते समस्तप्रयोगः अपि कर्तुं शक्यते अर्थः समानः भवति सामान्यतः समासे तथा एव महाविभाषा इति अस्ति सूत्रमेकमस्ति विभाषा इति तेन प्रायेण सर्वः अपि समासः विकल्पेन किन्तु केचन समासाः नित्यसमासाः इति उच्यन्ते तर्हि कः नित्यसमासः इत्युक्ते प्रायेण अविग्रहः अविग्रहः इत्युक्ते किम् न विग्रहः अविग्रहः यस्य विग्रहः नास्ति उदाहरणं कृष्णसर्पः इत्यस्ति कृष्णसर्पः इत्युक्ते किम् कोऽपि वक्तुं शक्नोति वा कृष्णसर्पः कृष्णः सर्पः वयं सामान्यतः वदामः यथा नीलमेघः नीलश्चासौ मेघश्च एवं कृष्णसर्पः कृष्णश्चासौ सर्पश्च इति वदामः किन्तु वृत्तिविग्रहयोः समानार्थकत्वं नास्ति कृष्णः सर्पः इति कृष्णसर्पः इत्यस्य विग्रहः न भवति किमर्थं विग्रहः इत्युक्ते वृत्तेः अर्थबोधनार्थम् उपयुज्यते किन्तु कृष्णः सर्पः इत्युक्ते अर्थः भिन्नः
कृष्णसर्पः इत्युक्ते भिन्नः कः अर्थः केन् यू गेस् समवन्
यस्य सर्पस्य वर्णः कृष्णः भवति सः कृष्णसर्पः
कः कृष्णसर्पः तर्हि कृष्णः सर्पः
तेरिल
यस् नथिंग यू कैन अनम्यूट योरसेल्फ
कृष्णः सर्पः मीन्स द स्नेक दैट इज ब्लैक इन कलर बट कृष्ण सर्पः मीन्स कोबरा स्पेसिफिकली
यस् सो कृष्ण सर्पः इत्युक्ते कोब्रा इत्येव अर्थः तस्य वर्णः यो वा भवतु कोब्रा इत्यस्य जातेः वाचकः भवति कृष्णसर्पः सः कदाचित् ब्रौन् भवति कदाचित् ग्रीनिश् भवति किन्तु सः कृष्णसर्प एव सः तत्र जातिविशेषः उच्यते कृष्णः सर्पः इत्युक्ते तु यस्य सर्पस्य वर्णः कृष्णः सः अजगरः वा भवतु अन्यः कश्चित् सर्पः यस्य सर्पस्य वर्णः कृष्णः सः कृष्णः सर्पः किन्तु कृष्णसर्पः इत्युक्ते जातिविशेषः तत्र विग्रहः नास्ति वयं विग्रहेण तम् अर्थं बोधयितुं न शक्नुमः अतः अविग्रहः इत्युच्यते अयं नित्यसमासः अत्र विग्रहः नास्ति एवमेव तीर्थकाकः इत्यस्ति तीर्थे काकः तीर्थं नाम पुण्यक्षेत्रम् इत्यर्थः तीर्थे काकः इत्युक्ते पुण्यक्षेत्रे कश्चित् काकः किन्तु तीर्थकाकः इत्युक्ते किम् तत्र तीर्थकाकः इति अत्यन्तं विशिष्टः प्रयोगः यः छात्रः एकस्मिन् गुरौ एकस्य गुरोः गुरुकुले न तिष्ठति गुरुकुलात् गुरुकुलं प्रति गच्छति तस्य निन्दारूपेण तीर्थकाकः इति प्रयुज्यते वस्तुतः काकः पुण्यक्षेत्रम् इत्युक्त्वा तत्रैव तिष्ठति वा न तिष्ठति किञ्चित् कालं भवति अन्यत्र गच्छति अन्यत्र गच्छति अन्यत्र गच्छति एवं यः छात्रः एकत्र स्थित्वा अध्ययनं न करोति गुरुकुलात् गुरुकुलम् अटति सः तीर्थकाकशब्देन उच्यते इडियोमेटिक् यूसेज् इति कथ्यते अत्र विग्रहः नास्ति अस्य तीर्थकाकः इति समस्तपदेन यः अर्थः गम्यते निन्दा छात्रस्य गुरुकुलात् गुरुकुलम् अटतः छात्रस्य निन्दा इति यः अर्थविशेषः बोध्यते सः विग्रहवाक्येन न बोध्यते अतः एतादृशाः समासाः यत्र संज्ञा जातिविशेषस्य संज्ञा भवति अथवा निन्दादयः विशिष्टाः अर्थाः भवन्ति ते अविग्रहाः विग्रहः न भवति विग्रहेण सः अर्थः न बोध्यते अतः अविग्रहः नित्यसमासः कृष्णसर्पः तीर्थकाकः इत्यादयः नित्यसमासाः इत्युच्यन्ते अथवा अन्यदपि अस्ति अस्वपदविग्रहः इत्यस्ति समासेन अर्थविशेषः बोध्यते यः अर्थः विग्रहेण बोधयितुं न शक्यः सः अविग्रहः इति अस्वपदविग्रहः स्वपद समासे यानि पदानि भवन्ति तानि स्वपदानि अस्वपद अर्थात् उदाहरणं पश्यामः उपकृष्णम् कः अर्थः कृष्णस्य समीपम् इति अर्थः वृत्तेः विग्रहस्य अर्थः अत्र समानः किन्तु समासे यानि पदानि सन्ति उप इति एकं पदं कृष्णम् इति एकं पदं तद् भिन्नं पदं विग्रहवाक्ये अस्ति कृष्णस्य समीपं कृष्णस्य उप इति वक्तुं न शक्नुमः तादृशः प्रयोगः नास्ति अतः तस्य स्थाने तदर्थबोधकम् अन्यत् पदं वयं प्रयुञ्ज्महे अस्वपदविग्रहः यस्य समस्तपदस्य अर्थः समास अघटितैः पदैः. समीपम् इति पदं समासे नास्ति, तेन पदेन सः अर्थः बोध्यते. एतत्तु केवलम् अर्थबोधनार्थं भवति. तादृशः विग्रहः अश्वपदविग्रहः इति कथ्यते. एवमेव निर्विघ्नम्, निर् इत्यस्ति विघ्नम् इत्यस्ति, तत्र विघ्नानाम् अभावः इति विग्रहवाक्यम् उच्यते. अर्थः समानः किन्तु पदं भिन्नम् अस्ति. एतादृशः विग्रहः समासे एकस्य पदस्य स्वातन्त्र्येण प्रयोगः यत्र न भवति. केवलम् उप इति पदं न भवति, निर् इति पदं स्वतन्त्रतया न भवति, तदा तस्मिन् अर्थे अन्यत् पदम् उपयुज्यते. उप इत्यस्य अर्थे समीपम्, निर् इत्यस्य अर्थे अभावः इत्यादि उपयुज्यते. अस्य अश्वपदविग्रहः इति व्यवहारः अस्ति. अयमपि नित्यसमासः, उपकृष्णम् इति नित्यसमासः. यथा राजपुत्रः इत्यस्य राज्ञः पुत्रः गच्छति इति भवति, एवम् उपकृष्णं गौः अस्ति, कृष्णस्य उप गौः अस्ति इति प्रयोगः न भवति. उपकृष्णम् इत्येव प्रयोक्तव्यम् इत्यर्थः. अयम् अश्वपदविग्रहः इति कथ्यते. अवगतम्? नित्यसमासः इत्युक्ते यत्र समासस्य विग्रहः न भवति, अथवा समासस्य विग्रहः अन्यैः पदैः उच्यते, न तु समासस्थैः पदैः. तादृशः समासः नित्यसमासः. अव्ययीभावः नित्यसमासः. अत्र प्रायेण अश्वपदविग्रहः भवति अव्ययीभावसमासे. अव्ययस्य अर्थम् अन्येन पदेन वयं कथयामः सामान्यतः. अवगतम्? प्रश्नाः सन्ति वा? अस्तु, तर्हि इदानीम् अव्ययीभावः इति ज्ञातं. तत्र सूत्रमस्ति अव्ययम्, विभक्ति, समीप, समृद्धि, वृद्धि इत्यादि. एतेषु सर्वेषु अर्थेषु अव्ययीभावसमासः भवति. तत्र प्रथमः अर्थः अस्ति विभक्ति इति. तस्य उदाहरणं पश्यामः. विभक्त्यर्थे अव्ययीभावः. तत्र सप्तमी विभक्तेः अर्थे अधि इति अव्ययम् अस्ति. वस्तुतः एतदेकमेव अव्ययं लभ्यते विभक्त्यर्थे. अधि इति अव्ययं सप्तमी विभक्तेः अर्थम्. सप्तमी विभक्त्याः कः अर्थः? सामान्यतः सप्तमी विभक्त्याः कः अर्थः? आधारः. आधारो अधिकरणम् उच्यते. सत्यम्, आधारः इत्यर्थः. अतः तस्मिन् अर्थे अधि इति अव्ययमस्ति. हरौ इति सुबन्तमस्ति. तत्र सप्तमी विभक्तिः, सः अर्थः अव्ययेन उच्यते इत्येव समस्यते. तत्र लौकिकविग्रहः किम्? हरौ इत्येव लौकिकविग्रहः. हरि इत्यस्ति, सप्तमी विभक्तिः अस्ति, तावानेव विग्रहः. विग्रहे पदद्वयं नास्ति, हरौ इत्येव विग्रहः. अलौकिकविग्रहः कः? अलौकिकविग्रहे प्रकृतिः प्रत्ययः. सो हरि, नि, अधि. केचन अधीसु, अधि इत्यपि सुबन्तमेव, अतः अधीसु इत्यपि लिखन्ति. हरि, नि, अधि इत्यपि लिखन्ति. लघुसिद्धान्तकौमुद्याम् एवमेव लिख्यते. अधीसु इति लिख्यते चेदपि क्लेशः नास्ति. अव्ययम् किन्तु अव्ययमपि सुबन्तम् इत्यतः एकं प्रत्ययं योजयित्वा अपि लेखितुं शक्यते. एवमेव लेखितुमपि शक्यते. उभयथा अपि दोषः नास्ति, उभयम् अङ्गीक्रियते. सो हरि, नि, अधि. हरि औ गत
वर्गस्य तत्र टिप्पणीषु प्रत्ययाः दत्ताः सुप्रत्ययाः तद्दृष्टं स्यात् सु औजस् अम् औक्षस् इत्यादि तत्र सप्तमे विभक्तौ एकवचने नी इति प्रत्ययः हरौ इत्यत्र हरि नी अधि इति अलौकिकविग्रहः भवति हरौ इति विग्रहः अधिहरि इति समस्तपदं भवति कथं भवति इति पश्यामः प्रक्रिया तु एवं लेखनीयं हरि नी अधि इति स्थिते अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असंप्रति शब्दप्रादुर्भाव पश्चाद् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्यान्त वचनेषु इति अव्ययीभावसमासः यद्यपि न लिख्यते तथापि पुनः पुनः उच्यते चेत् सूत्रं भवति नो चेत् आजीवनम् अव्ययं विभक्ति इत्येव तिष्ठति अग्रे अर्थाः न स्मर्यन्ते सो हरि नि अधि इति समासः समासे कृते किं भवति कृत्तद्धितसमासाश्च इति समुदायस्य प्रातिपदिकसंज्ञा सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि हरि अधि इत्यस्ति अग्रे किं भवति एतदस्ति समस्तपदमस्ति अधिहरि अधि इति पूर्वमागच्छेत् तत् कथम् इति चेत् तत्र सूत्रमस्ति प्रथमानिर्दिष्टं समास उपसर्जनम् इति एकं सूत्रमस्ति प्रथमानिर्दिष्टं समासे उपसर्जनम् इति त्रीणि पदानि सन्ति प्रथमानिर्दिष्टम् इति प्रथमाविभक्त्यन्तम् समासे इति सप्तमी विभक्त्यन्तम् उपसर्जनम् इति प्रथमान्तम् इदं संज्ञासूत्रम् उपसर्जनसंज्ञां कथयति उपसर्जनम् उपसर्जनं नाम किम् समासे प्रथमानिर्दिष्टम् सो समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञं स्यात् इति सूत्रार्थः समासे इत्युक्ते समासशास्त्रे शास्त्रं नाम सूत्रम् समासविधायकं यत् सूत्रमस्ति तस्मिन् सूत्रे प्रथमानिर्दिष्टं प्रथमाविभक्तौ यत् पदमस्ति तत् पदम् उपसर्जनम् इति कथ्यते समासशास्त्रम् इत्युक्ते समासविधायकं सूत्रं वार्तिकं वा कदाचित् वार्तिकेन समासः विधीयते चेत् तदपि अत एव समासशास्त्रे इति उद्दीयते समासशास्त्रं प्रायेण कथं भवति समाससूत्रम् इति कानिचन सूत्राणि पश्यामः संख्या वंश्येन इति एकं सूत्रमस्ति तत्र संख्या इति प्रथमा विभक्तौ अस्ति वंश्येन इति तृतीया विभक्तौ अस्ति तृतीया तत्कृतार्थेन गुणवचनेन इति एकं सूत्रमस्ति तत्र तृतीया इति पदं प्रथमाविभक्तौ अस्ति तृतीया इति उच्यते किन्तु पदं रमा तृतीया इति प्रथमाविभक्त्यन्तं तत्कृतार्थेन गुणवचनेन इति तृतीयाविभक्तौ अस्ति अन्नेन व्यञ्जनम् अन्नेन इति तृतीया व्यञ्जनम् इति प्रथमा क्तेन अहोरात्रावयवाः क्तेन इति तृतीया अहोरात्रावयवाः इति प्रथमा एवं समाससूत्रं सामान्यतः एवं सुप् सुपा सः तदेव किल स्टाण्डर्ड् टेम्प्लेट् सुबन्तं सुबन्तेन सो एकं प्रथमाविभक्तौ भवति अपरं तृतीया विभक्तौ भवति तत्र प्रथमाविभक्तौ यदस्ति तत् उपसर्जनम् समासे प्रथमानिर्दिष्टम् प्रथमाविभक्तौ यत् पदमस्ति तेन पदेन यदुच्यते तस्य उपसर्जनसंज्ञा इति सूत्रस्य अर्थः उदाहरणं पश्यामः संख्या वंश्येन इत्यस्ति त्रयः मुनयः वंश्याः यस्य तेन त्रिमुनि एतयोः पदयोः समासः क्रियते.
त्रिमुनि व्याकरणम्.
सो अ डिसिप्लिन् विच् हेस् त्री स्टेजेस् इन् इट्स् वंश. ओके, लैक् व्याकरण अवर् व्याकरण पाणिनीय व्याकरण इस् काल्ड् त्रिमुनि व्याकरण. तत्र संख्या इत्युक्ते त्रि, वंश्यः इस् मुनि. सो संख्या इति प्रथमा निर्दिष्टम्. अतः संख्यावाचकस्य त्रि शब्दस्य उपसर्जनसंज्ञा भवति. तृतीया तत्कृतार्थेन गुणवचनेन शङ्कुलया खण्डः इति उदाहरणम्. तत्र शङ्कुला इति एकं पदं, खण्ड इति अपरं पदं. तत्र तृतीयान्तं किं? शङ्कुला. सूत्रे प्रथमान्तं शङ्कुलया इति तृतीया विभक्तिः, किन्तु सूत्रे तृतीया इति प्रथमा विभक्तौ अस्ति. अतः इदं प्रथमा निर्दिष्टम्. सो प्रथमा निर्दिष्टम् इत्यस्य विग्रहवाक्यः न द्रष्टव्यः. विग्रहवाक्ये यत् प्रथमा विभक्तौ अस्ति तत् न, सूत्रे यत् प्रथमा विभक्तौ अस्ति तत् उपसर्जनम्. अन्नेन व्यञ्जनम्, दध्ना अन्नम् इत्यस्ति. तत्र दधि अन्न, अन्न इत्यनेन सह व्यञ्जनम्, व्यञ्जनम् येन सह मिश्रणं क्रियते तत्. सो अत्र व्यञ्जनं किं? दधि एव व्यञ्जनम्. अतः दधि इति उपसर्जनम्. क्तेन अहोरात्रावयवाः. सो पूर्वाह्णे कृतम्. पूर्वाह्न इति अह्नः अवयवः, अ पार्ट् आफ् द डे. सो अतः सः शब्दः उपसर्जनं भवति. सो त्रिमुनि शङ्कुलाखण्डः दध्यन्नं पूर्वाह्न कृतम्. सो अत्र कामन् फ्याक्टर् किमस्ति? उपसर्जनं यद्भवति तत्तु पूर्वं भवति, तदर्थमेव उपसर्जनसंज्ञा दीयते. अनेन सूत्रेण किमुच्यते? प्रथमानिर्दिष्टं समास उपसर्जनम्. तस्य किं प्रयोजनम्? उपसर्जनं पूर्वम् इति सूत्रमस्ति. उपसर्जनं पूर्वम् उभयमपि प्रथमाविभक्तौ अस्ति. विधिसूत्रं पूर्वतनसूत्रेण उपसर्जनसंज्ञा दीयते. अनेन विधिः, उपसर्जनं पूर्वं किं विधीयते? पूर्वनिपातः. द प्लेस्मेण्ट् आफ् अ वर्ड् एस् द फस्ट् पार्ट् इन् अ समास इस् काल्ड् पूर्वनिपात. सो पूर्वनिपातः अनेन सूत्रेण विधीयते. समासे उपसर्जनं प्राक् प्रयोज्यम्. सो उपसर्जनसंज्ञा यस्य अस्ति स एव शब्दः पूर्वं भवति. विग्रहं यथा वा भवतु, दध्ना अन्नम् इति वदामः अथवा अन्नं दध्ना इति वदामः. वयं जानीमः संस्कृतभाषायां क्रमस्य सामान्यतः क्रमभेदेन अर्थभेदः न भवति. दध्ना अन्नम् इति वा अन्नं दध्ना इति वा समानम्. किन्तु समस्तपदं तु दध्यन्नम् इत्येव भवति, अन्नदधि इति न भवति. किमर्थं न भवति? अन्नेन व्यञ्जनम् इति समासविधायकं सूत्रं. तत्र व्यञ्जनम् इति प्रथमा विभक्तौ अस्ति, उपसर्जनसंज्ञा अस्ति. व्यञ्जनवाचकः शब्दः दधि, तस्य उपसर्जनसंज्ञा अस्ति. उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः भवति. विग्रहवाक्यं परिवर्तयामः चेदपि समास समस्तपदं समानमेव. एवमेव शङ्कुलया खण्डः, खण्डः शङ्कुलया. अर्थमनन्तरम् अवगच्छामः एतत् सर्वम्. उभयथापि शङ्कुलाखण्डः इत्येव समस्तं पदं भवति. अवगतम्? उपसर्जनसंज्ञा, तस्य उपयोगः. उपसर्जनसंज्ञया किं भवति? पूर्वनिपातः भवति. तस्य पदस्य उपसर्जनस्य पूर्वनिपातः भवति. इदानीम् अस्माकं सूत्रं पश्यामः. अस्माकं प्रसक्तं समासविधायकं सूत्रं किम्? अव्ययम्, विभक्ति, समीप, समृद्धि इत्यादि अन्तवचनेषु सुपा. अव्ययं
सुबन्तेन समस्यते. अत्र प्रथमा निर्दिष्टं किम्? अव्ययम् इति प्रथमा निर्दिष्टम्. अतः उपसर्जनसंज्ञा भवति. अतः प्रथमा निर्दिष्टत्वात् अव्ययस्य उपसर्जनसंज्ञा. अतः अव्ययीभावसमासे सामान्यतः अव्ययम् पूर्वपदं भवति. तस्यार्थः प्रधानं भवति. अतः अव्ययीभावसमासः पूर्वपदार्थप्रधानः. अव्ययम् उपसर्जनम्, उपसर्जनत्वात् पूर्वपदं भवति. अव्ययस्य अर्थः एव प्रधानः अव्ययीभावसमासे. अतः अव्ययीभावसमासः पूर्वपदार्थप्रधानः. सो इदानीं किं जातम्? हरि अधि इत्यस्ति. अत्र अधि इति अव्ययम्, अतः उपसर्जनसंज्ञा अस्ति. अनेन सूत्रेण उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः भवति. तदा अधि हरि. सो हरि नि अधि समासः कृतः, सुब्लुक् कृतम्. इदानीम् अधि इत्यस्य पूर्वनिपातः क्रियते. कथम्? प्रथमानिर्दिष्टं समास उपसर्जनम् इति उपसर्जनसंज्ञा, उपसर्जनं पूर्वम् इति पूर्वनिपातः, अधिहरि इति अभवत्. अग्रे किं भवति? समासात् सुबुत्पत्तिः. पूर्वमपि दृष्टं किल, भूतपूर्वः इति. समासप्रक्रिया कथं भवति? आदौ समासः, समासे कृते कृत्तद्धितसमासाश्च इति प्रातिपदिकसंज्ञा, प्रत्ययस्य लुक् सुब्लुक् भवति, पूर्वनिपातः भवति. किं पदं पूर्वं प्रयोक्तव्यम् इति निश्चेतव्यम्. ततः परं कदाचित् विशेषकार्याणि भवन्ति. यथा महान् राजा इति वदामः, महान् च असौ राजा च. तत्र महत् सु राजन् सु इत्यत्र समासः विधीयते, कर्मधारयसमासः. महत् सु राजन् सु प्रातिपदिकसंज्ञा भवति. सुपोधातुप्रातिपदिकयोः इति लोपे महत् राजन् इत्यस्ति. तत्र महत् इत्यस्यैव पूर्वनिपातः. इदानीं महत् राजन् इति स्थिते महत् इत्यस्य आकारः विधीयते, येन महा इति भवति. राजन् इत्यत्र अन् इत्यस्य लोपः, तत्र अन्यदपि कार्यमस्ति. अतः महत् राजन् इत्यतः महाराज इति भवति. तत्र पूर्वपदस्य कदाचित् विशिष्टानि कार्याणि भवन्ति, उत्तरपदस्य कदाचित् भवन्ति. एतानि कानि कार्याणि इति अग्रे पश्यामः. तदनन्तरं सन्धिः, यदि सन्धेः अवकाशः अस्ति. यथा गणानाम् ईशः, गणा आम् ईश सु, सुब्लुकि कृते गण ईश. तत्र गण इत्यस्यैव पूर्वनिपातः. विशेषकार्यं नास्ति. गण ईश इति स्थिते यदि सन्धेः अवकाशः अस्ति तर्हि सन्धिः करणीयः. संहिता समासे नित्या, अतः सन्धिः क्रियते. तदनन्तरं समस्तपदात् सुप् प्रत्ययः क्रियते. इदानीं समस्तं पदमस्ति, तत्तु प्रातिपदिकम्. अतः सुप्रत्ययः करणीयः. सुप्रत्ययं विना पदत्वं न भवति, वयं प्रयोक्तुं न शक्नुमः. अतः सुप्रत्ययः कर्तव्यः. कः प्रत्ययः क्रियते? वाक्ये यदा वयं समासस्य उपयोगं कुर्मः तदा तत्रत्यं विभक्तिम् आश्रित्य भवति. नो चेत् सामान्यतः प्रथमाविभक्तौ एकवचनप्रत्ययः भवति. अस्तु, इदानीं किं जातम्? हरि नि अधि इति समासः कृतः. अस्य प्रातिपदिकसंज्ञा अस्ति किल, कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा अस्ति. इदानीं वयं किं कृतवन्तः? सुप्रत्ययस्य लोपं कृत्वा अधि इति पूर्वमानीतवन्तः. अधिहरि इत्यस्ति, अस्य प्रातिपदिकसंज्ञा अस्ति वा? हरि नि अधि इत्यस्य प्रातिपदिकसंज्ञा अस्माभिः दत्ता. अधिहरि इत्यस्य प्रातिपदिकसंज्ञा भवति वा न वा इति प्रश्नः. यदि सुप्रत्ययः कर्तव्यः तर्हि प्रातिपदिकसंज्ञा अपेक्ष्यते. अधियारी इति भिन्नम्, पूर्वं हरिणी अधि इत्यस्य प्रातिपदिकसंज्ञा आसीत्, अधिहरी इति भिन्नम्, अस्य प्रातिपदिकसंज्ञा भवति वा इति प्रश्ने लघुकौमुद्यामुच्यते एकदेशविकृतस्य अनन्यत्वात् प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। किं वदति? एकदेशविकृतम् अनन्यवत् इति काचित् परिभाषा अस्ति। कः अर्थः? महाभाष्यकारः वदति, छिन्ने पुच्छे श्वा श्वैव न अश्वः न वा गर्दभः। एकः शुनकः अस्ति, शुनकस्य पुच्छं यदि वयं कर्तयामः सः शुनकः वा अन्यः कश्चित् प्राणी वा इति चेत् श्वा श्वैव सः इतोपि शुनकः एव, न अश्वः न वा गर्दभः इत्युक्ते एकदेशविकृतम्। व्याकरणे वयं बहूनि परिवर्तनानि कुर्मः, वि कीप् चेञ्जिङ्ग् अ पार्टिकल्, तत्र एकदेशविकृतम्। सो वेन् संथिङ्ग् इस् पार्शियलि चेञ्ज्ड् और् मोडिफैड् अनन्यवत् इट् इस् नाट् संथिङ्ग् एल्स् टोटलि। सो हरिणि अधि इति आसीत्, तत्र वयं प्रत्ययं लोपयित्वा परिवर्तनं कृतवन्तः, तथापि इदं प्रातिपदिकमेव एकदेशविकृतस्य अनन्यत्वात्, बिकास् इट् इस् नाट् संथिङ्ग् एल्स् प्रातिपदिकसंज्ञायां। सो अधिहरि इत्यस्यापि प्रातिपदिकसंज्ञा भवति। स्वाद्युत्पत्तिः, सु आदि स्वादि सुप्रत्ययाः तेषाम् उत्पत्तिः भवति। प्रक्रियां पुनः पश्यामः। हरि नि अधि अव्ययं विभक्तिसमीप इत्यनेन अव्ययीभावसमासः, हरि अधि सुपोधातुप्रातिपदिकयोः इत्यनेन सुप्रत्ययस्य लुक्, उपसर्जनसंज्ञायाम् उपसर्जनं पूर्वम् इति पूर्वनिपातः, इदानीम् अधिहरि सु स्वौजस् इत्यनेन सुप्रत्ययः क्रियते। अग्रे किं भवति इति अव्ययीभावश्च इति सूत्रमस्ति। पूर्वम् अव्ययीभावः इति सूत्रं दृष्टं, तत्सूत्रम् अधिकारसूत्रम्, अव्ययीभावसमास अधिकारं वदति। इदं सूत्रं भिन्नं, लघुकौमुद्यां पूर्वमेव अस्ति। अव्ययीभावः च अव्ययम् इति अनुवर्तते, स्वरादिनिपातम् अव्ययम् इत्यनेन अव्ययसंज्ञा अस्ति, अतः इदं संज्ञासूत्रम् अव्ययसंज्ञां कथयति। अव्ययीभावसमासः अव्ययं भवति इत्यर्थः। अव्ययीभावसमासे पूर्वपदम् अव्ययम्, समस्तपदमपि अनेन सूत्रेण अव्ययसंज्ञां प्राप्नोति। अव्ययीभावसमासः अव्ययसंज्ञकः भवति इत्यर्थः। अव्ययं भवति चेत् किं भवति? अव्ययादाप्सुपः इति पुनः सूत्रमस्ति। एतत् सर्वमपि सूत्रं लघुकौमुद्यां पूर्वमेव अस्ति, अत्र 372-373 अस्माभिः पुनरावृत्तिः इति मत्वा पुनः उच्यते। अव्ययात् इति पञ्चमी विभक्तिः, आप्सुपः इति षष्ठी विभक्तिः, लुक् इति अनुवर्तते प्रथमा विभक्तिः। अव्ययात् आप् सुपः लुक् विधिसूत्रं। लुक् लुक् इत्युक्ते लोपः, प्रत्ययस्य लोपः विधीयते। कदा भवति? अव्ययात् विहितस्य आपः सुपश्च लुक्। आप् इति अन्यः प्रत्ययः इदानीं मास्तु, सुप् सुप् इत्युक्ते सुप्रत्ययः। सर्वाणि अव्ययानि सुबन्तानि, सुप्रत्ययः विधीयते लुप्यते अनेन सूत्रेण, अव्ययादाप्सुपः इत्यनेन अव्ययात् विहितस्य सर्वस्यापि सुप्रत्ययस्य लोपः भवति, अत एव अव्ययस्य भेदः न भवति, सर्वेषु वचनेषु सर्वासु विभक्तिषु समानं भवति। किमर्थं? प्रत्ययः लुप्तः इत्यतः। So, avyayi bhavascha iti avyayatvat supah luk. Adhihari iti samasta padam praptam. Adhihari su iti supratyayah kratah. Idanim adhihari iti avyayam. Avyayi bhavascha iti sutrena avyayasamnyasti. Ataha avyayadapsupah ityanena supratyayasya luk bhavati lopah bhavati. Samasaha, subluk, purvanipataha, punaha supratyayaha, idaniyam adhihari, avyayaraptupaha ityanena supratyayasya lopaha. Idam padam, atraiva na sthaganiyam, you cannot stop here because it is not a pada, apadam na prayunjita. Supratyayam yojayitva, avyayaraptupaha ityanena supratyayasya lope, adhihari. Iti samastam padam siddham. Harau iti vigrahe vibhaktyarthe avyayi bhava samasah. Avagatam? It may seem a bit heavy in the beginning. So vastutaha saralaha eva. As we go on into samasa, this becomes very, very easy. Sarvesha samaseshu idameva kriyate. These are common steps across all samasas. Okay. So samasaha subluk purvanipataha supratyayaha lopaha bhavati athava anyatkaryam bhavati. Okay. So very, 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 very important for samasa prakarana. So adhyatana pathasya sankshepaha avyayi bhavaha iti samasadhikaraha. Tasmin adhikare avyayam vibhakti samipa ityadi sutrena vibhaktyadishu artheshu vidyamanam avyayam subantena saha samasyate iti uktam. Tatra prathama nirdishtam samasa upasarjanam ityanena samasa sutre prathama vibhakto vyadasti tasya upasarjana samyabhavati upasarjanam purvam iti purvanipataha avyayam ityasya prathama nirdishtatvat purvanipataha bhavati. Avyayadapsupaha itya avyayi bhava samasasya avyaya samyasti lopaha bhavati. So avyayi bhavaha nitya samasaha avigrahaha asvapada vigrahova nitya samasaha iti jnatavantaha. Sarve avyayi bhava samasaha avyaya samyakaha bhavanti. Tasmat avyayat subutpattihi bhavati. Avyayadapsupaha ityanena lopaha api bhavati. Samasa prakriya samanyataha katham bhavati. Adau samasa vidhanam tasya pratipadika samya subluk purvanipataha upasarjanasya purvanipataha purva uttarapadayoho visishtani karyani sandhihi subutpattihi iti samanya samasa prakriya. Adhyatana prashnaha vibhaktyarthe avyayi bhavam sasutram sodaharanam vivrunuta. Adhihari ityasya katham bhavati iti vivaranam datavyam tavade. Samase upasarjana samkya kena sutrena bhavati tasya kim prayojanam. Kaha nitya samasaha sodaharanam vivrunuta. Samanyataha samasa prakriyayam keke amshaha bhavanti vivrunuta. Adhihari prakriyam sasutram likhata. Prathamam antimam prayena samanam. You can combine those and write one. Etesham uttaram likhitva preshaniyam. Avagamanartham kanichesana prashnaha. Avyayi bhave sarvani ghataka padani avyayani ritamva anritamva. All the components of an avyayi bhava samasa are avyaya. True or false? Avyayi bhave samasta padam avyayam ritamva anritamva. Avyayi bhava samasaha samanyataha avigraha bhavativa उत अस्वपद विग्रहः भवति वा. अव्यय संज्ञायाः प्रधानं प्रयोजनं किम् इत्येते प्रश्नाः. श्वः वर्गः नास्ति, मया नगरान्तरं गम्यते, अतः अग्रिमसप्ताहे एव अग्रिमवर्गः. यथेच्छं समयः अस्ति. And this class is very very important. As I said, the fundamental prakriya in a samasa. Ataha samyak pathitva, likhitva, preshayantu. Prashnaha santiva? ಸಮಾಂನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಸಂವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ. ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ.
ನಮಸ್ತೆ ಭಗಿನಿ.